इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा. प्रधानमन्त्री नरेन्द्र मोदी उक्तवान् यत् भारतं विश्वस्य द्रुततरं वर्धमाना प्रमुखा अर्थव्यवस्था अस्ति अपि च शीघ्रमेव वैश्विकस्तरे तृतीयां बृहत्तमीम् अर्थव्यवस्थां भवितुं सज्जम् अस्ति. दिल्ल्याम् एकेन निज सञ्चारगृहेण आयोजिते मञ्चे श्रीमोदी सबलं प्रावोचत् यत् भारतं स्वस्य सामर्थ्येन स्वविध्येन च विश्वस्य कृते आशायाः किरणम् इव वर्तते.
एक्सपर्ट कह रहे हैं कि दुनिया की ग्रोथ में भारत का कंट्रीब्यूशन बहुत जल्द करीब 20% होने जा रहा है. ये ग्रोथ, ये रेजिलियंस जो हम भारत की इकोनॉमी में देख रहे हैं, इसके पीछे बीते एक दशक में भारत में आई मैक्रो इकोनॉमिक स्टेबिलिटी है.
प्रधानमन्त्री नरेन्द्र मोदी वैज्ञानिकान् गहनान्तरिक्षस्य अन्वेषणाय सज्जान् भवितुम् आहूतवान् यतः एतेषु अज्ञात प्रदेशेषु मानवतायाः भविष्याय महत्वपूर्णानि रहस्यानि विद्यन्ते. गतदिने राष्ट्रियान्तरिक्ष दिवसस्य अवसरे एकस्मिन् दृश्य श्रव्य सन्देशे श्रीमोदी अवदत् यत् भारतं पूर्वमेव चन्द्रं मंगलं च प्राप्तवत् अस्ति. सम्प्रति अन्तरिक्षस्य गहनानां क्षेत्राणाम् अन्वेषणस्य कालः सम्प्राप्तः. प्रधानमन्त्रिणा उक्तं यत् भारतं सेमी क्रायोजेनिक यन्त्र विद्युत् प्रणोदनेत्यादि सफल प्राविधिकीषु द्रुतगत्या प्रगतिं कुर्वदस्ति अपि च शीघ्रमेव गगनयानाभियानस्य अपि आरम्भं करिष्यति. आगामिनि काले भारतं स्वकीयम् अन्तरिक्षस्थानकं निर्मास्यतीति प्रधानमन्त्री दृढतया अवोचत्. श्रीमोदी अवदत् यत् अल्पावधौ एव राष्ट्रियान्तरिक्ष दिवसः यूनां मध्ये उत्साहस्य आकर्षणस्य च कश्चन अवसरः अभवत्. सः अवदत् यत् अन्तरिक्षक्षेत्रं पौनः पुन्येन नूतनं लक्ष्यम् अंगीकरोति अपि च विगतेषु एकादशवर्षेषु सर्वकारेण अन्तरिक्षक्षेत्रीयाः बहवः परिष्काराः कृताः सन्ति. तेन उक्तं यत् अद्यत्वे अन्तरिक्षक्षेत्रे भारतस्य प्रगतिः सामान्य नागरिकाणां जीवनं सुलभतरं करोति इति.
आज भारत सेमी क्रायोजेनिक इंजिन और इलेक्ट्रिक प्रोपल्शन जैसी ब्रेक थ्रू टेक्नोलॉजी में तेजी से आगे बढ़ रहा है. जल्द ही आप सब वैज्ञानिकों की मेहनत से भारत गगनयान की उड़ान भी भरेगा और आने वाले समय में भारत अपना स्पेस स्टेशन भी बनाएगा.
विदेश मंत्री डॉक्टर सुब्रमण्यम जयशंकर अवदत् यत् भारत अमेरिका देशयोः व्यापार वार्ता साम्प्रतमपि प्रवर्तते. तेनोक्तं यत् सर्वकारः देशस्य कृषकाणां लघुद्यमिनां च हितरक्षणाय प्रतिबद्धोऽस्ति. ह्यः नवदिल्ल्यां 25-2000 ईटी वर्ल्ड लीडर्स फोरम इत्याख्यं कार्यक्रमं सम्बोधयन् असौ अवदत् यत् भारतम् अमेरिकादेशेन साकं स्वसीम्नां विषये सुस्पष्टमस्ति अपि च स्वहितायैव निर्णयं ग्रहीष्यति. तेलायात प्रतिबन्ध विषये मन्त्रिणा प्रोक्तं यत् भारतं लक्ष्यीकृत्य उपस्थापित तर्कः चीनदेशोपरि नान्वेति. सः सबलम् उक्तवान् यत् गृहीत निर्णयाः राष्ट्रहितायैव भविष्यन्तीति. भारतीयर्तुविज्ञान विभागस्य अनुसारि श्वः पर्यन्तं राजधान्यां दिल्ल्यां कतिपय भागेषु वृष्टिः अतिवृष्टिः वा भविष्यति. अद्य पूर्वीय राजस्थाने घनासार वृष्टेः सम्भावना अस्ति. प्रियाः श्रोतारः, संस्कृत जगता सम्बद्धैः विभिन्नैः क्रियाकलापैः संवलितस्य संस्कृत साप्ताहिकीति विशिष्ट कार्यक्रमस्य प्रसारणम् आकाशवाण्याः एफएम गोल्ड प्रवाहिकातः अद्य मध्याह्ने 1:30 भविष्यति. अन्ते क्रीडावार्तासु, कजाकिस्तान देशे 16तम लक्ष्यभेद प्रतिस्पर्धायां भारतेन स्वर्ण पदकं विजितम् इति वार्ताः.